इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुरुषोत्तम शर्मा। आदौ मुख्याः वार्ताः। कर्णाटके कांग्रेस दलस्य नेतृत्वे विधायक दलस्य नेतुः चयनाय उपवेशनं प्रवर्तते। म्यांमारस्य राष्ट्रपतिः मिन आंग लाइंग इत्यसौ अद्य पञ्चदिवसीय भारतयात्रायै बिहारस्य गयां सम्प्राप्तः। तेन महाबोधि मन्दिरस्य दर्शनं कृतम्। ऋतुविज्ञान विभागेन उक्तं यत् वायुमण्डलीय परिस्थितिभिः अनुमीयते यत् दक्षिण पश्चिम प्राविट आगामिषु चतुर्पञ्च दिनेषु केरलस्य तमिलनाडोः च कतिपय भागेषु आगमिष्यति। अमेरिकायाः रक्षामन्त्री पीट हेक्सेथ इत्यसौ अवोचत् यत् यदि सन्धेः प्रयासाः विफलाः भविष्यन्ति चेत् अमेरिकायाः सेना ईरानं विरुध्य सैन्यकार्याचरणं विधातुं पूर्णरूपेण सन्नद्धा वर्तते। अपि च बैडमिंटन क्रीडायां सिंगापुर ओपन टूर्नामेंट इति स्पर्धायां भारतस्य सात्विक साईराज रंकीरेड्डी चिराग शेट्टी इत्यनयोः युगलं निर्णायकचक्रे प्रविष्टम्। अथ वार्ताः विस्तरेण। कर्णाटके कांग्रेस दलस्य नेतृत्वे विधायक दलस्य नेतुः चयनाय उपवेशनं प्रवर्तते। निवर्तमान मुख्यमन्त्रिणः सिद्धारमैया वर्यस्य त्यागपत्रं राज्यपालेन थावरचन्द गहलोतेन पूर्वमेव स्वीकृतम्। उपवेशनस्य अनन्तरं अखिल भारतीय कांग्रेस कमिटी इत्यस्य सचिवः रणदीप सिंह सुरजेवाला वार्ताहरान् सम्बोधयिष्यति। अस्माकं वार्ताहरेण सूचितं यत् अस्मिन् उपवेशने डीके शिवकुमारः औपचारिकरूपेण विधायकदलस्य नेता चयनितो भविष्यति। इतः पूर्वम् अपि डीके शिवकुमारः राज्यपालम् अमिलत्। उपवेशनस्य अनन्तरं प्रशासनस्य रचनायै अपि सः राज्यपालाय प्रतिवेदनं दास्यति। इलेक्ट्रॉनिक सूचना प्रौद्योगिकी मंत्री अश्विनी वैष्णवः अद्य नोएडायाः सूरजपुरस्थितस्य लोहम इति समवायस्य भ्रमणम् अकरोत्। अयं समवायः महत्वपूर्णखनिनाम् उन्नतसामग्रीणां च उत्पादनं विदधाति। अत्रावसरे श्रीवैष्णवः अवोचत् यत् लिथियम बैटरी स्थायी चुम्बक इत्येतौ आधुनिकप्रौद्योगिक्यां महत्वपूर्णां भूमिकां निभालयतः। प्रधानमन्त्रिणः नरेन्द्रमोदिनः परिकल्पना वर्तते यत् एतेषां निर्माणं भारते स्यात्। एतेषां प्रौद्योगिक्यः विकासः स्वदेशस्तरे भवेत्। श्रीवैष्णवेन उक्तं यत् अस्याः परिकल्पनायाः अनुरूपं लौहम् नामकेन समवायेन सफलतापूर्वकं जटिल प्रौद्योगिकी विकसिता।
एक यंग स्टार्टअप लोहम, इन्होंने कंप्लीट टेक्नोलॉजी को डेवलप किया है और टेक्नोलॉजी को डेवलप करने के बाद में वहां से प्रोडक्शन का लेवल लेके आए। आज उस प्लांट को देखने का मौका मिला। लिथियम कार्बोनेट बनाने की मशीन है जो कि आगे सीधा बैटरी बनाने में काम में आए, और परमानेंट मैग्नेट बनाने की मशीन है जो कि बहुत ही एक अच्छे बहुत ही कॉम्प्लेक्स टेक्नोलॉजी को अच्छे तरीके से डेवलप किया।
म्यांमारस्य राष्ट्रपतिः मिन आंग लाइंग इत्यसौ अद्य पञ्चदिवसीय भारतयात्रायै बिहारस्य गयां सम्प्राप्तः। तेन बोधगया स्थितस्य विश्वप्रसिद्धस्य महाबोधिमन्दिरस्य दर्शनं विहितम्। राष्ट्रपतिना तत्र बोधिवृक्षस्य अधः प्रार्थना अपि कृता। अत्रावसरे म्यांमारस्य राष्ट्रपतिना बकराऊर स्थिते ऐतिहासिके सुजाता मन्दिरे शिरं नत्वा बोधगया स्थितस्य बर्मी मठस्य यात्रा कृता। राष्ट्रपतिना सह वरिष्ठाधिकारिणः बौद्धप्रतिनिधयः उच्चस्तरीय प्रतिनिधिमण्डलम् अपि अवर्तत। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। ऋतुविज्ञान विभागेन उक्तं यत् वायुमण्डलीय परिस्थितिभिः अनुमीयते यत् दक्षिण पश्चिम प्राविट आगामिषु चतुष्पञ्च दिनेषु केरलस्य तमिलनाडोः च कतिपय भागेषु आगमिष्यति। अरबसागरे बंगालखात्यां लक्षद्वीपे कन्याकुमार्यां च प्राविट अग्रे समेधते। ऋतुविज्ञान विभागेन केरलस्य अष्टजनपदेषु अद्य प्रचण्ड वृष्टेः पूर्वानुमानं विधाय पीतवर्ण सञ्चेतना प्रसारिता। ऋतोः प्रतिकूलता कारणेन जून मासस्य तृतीयदिनं यावत् मत्स्यजीविनः केरल लक्षद्वीपतटयोः समुद्रे उद्यमं न कुर्वन्तु इति परामर्शः अपि प्रदत्तः। सेनाप्रमुखः जनरल उपन ऋद्वेदी अवोचत् यत् भारतीय सशस्त्र बलानि उच्चस्तरीय सतर्कतायां विद्यन्ते। आवश्यकता विद्यते सति ऑपरेशन सिन्दूर 2.0 इति सिन्दूराभियानस्य द्वितीय चरणाय सन्नद्धानि सैन्यबलानि वर्तन्ते। पुणे नगरस्य खडकवासला स्थितायां राष्ट्रिय रक्षा अकादम्यां स्नातकान् सार्धैकशततमस्य दलस्य पासिंग आउट परेड इति प्रयाणं सम्बोधयता जनरल द्विवेदिना उक्तं यत् सिन्दूराभियाने दृढसंकल्पेन प्रत्युत्तरप्रदानस्य क्षमता प्रदर्शिता। तेनोक्तं यत् एतत् अभियानम् इदानीम् अपि सन्ततं प्रवर्तते। जनरल उपवेदी अवोचत् यत् सिन्दूराभियाने भारतीय सैन्यबलानां मध्ये तारतम्यम् अवलोकितम्। सममेव वयं भविष्यकालाय आत्मानं सन्नद्धं कुर्महे। सेनाप्रमुखेण स्नातकाः व्यावसायिकनेतृत्वस्य राष्ट्रसेवायाः च सर्वोच्चमानकान् यथावत् प्रवर्तितुम् आकारिताः।
जहाँ तक ऑपरेशन सिंदूर की बात है, ये अभियान अभी जारी है। इसमें फिलहाल केवल अस्थायी रूप से संघर्ष विराम है, इसलिए भारतीय सशस्त्र बल ऑपरेशन सिंदूर 2.0 की संभावना को ध्यान में रखते हुए पूरी तैयारी कर रहे हैं। इस समय हमारा ध्यान तीनों सेनाओं के बीच बेहतर तालमेल बढ़ाने पर है, साथ ही हम भविष्य के युद्धों के लिए खुद को और अधिक सक्षम बना रहे हैं। जैसा कि मैंने पहले कहा था, आने वाले समय के युद्ध केवल जमीन, समुद्र और हवा तक सीमित नहीं रहेंगे।
प्रधानमंत्री नरेन्द्र मोदी श्वः प्रातः 11 वादने आकाशवाण्याः मन की बात कार्यक्रमे जनैः साकं स्वविचारान् प्रकटयिष्यति। कार्यक्रमोऽयं मासिक रेडियो कार्यक्रमस्य 34th प्रभागः वर्तते। अयं कार्यक्रमः आकाशवाणी दूरदर्शनयोः अन्तर्जालीय पटले प्रसारयिष्यते। एतदतिरिच्य कार्यक्रमोऽयं आकाशवाण्याः अन्तर्जालीय वेबफलकं समेत्य न्यूज ऑन AIR मोबाइल ऐप इति तन्त्रांशे अपि उपलब्धः भविष्यति। प्रमुखः रक्षाध्यक्षः जनरल अनिल चौहानः अद्य नवदिल्लीस्थे राष्ट्रिय समर स्मारके सैन्यत्रयेण प्रदत्तेन गार्ड ऑफ ऑनर इति सम्मानेन सह सैन्यसेवाभ्यः निवृत्तिं स्व्यकरोत्। अयं समारोहः देशस्य सर्वोच्च सैन्याधिकारी रूपेण तदीय विशिष्ट कार्यकालस्य समापनस्य प्रतीकः अवर्तत। समर स्मारके पुष्पाञ्जलिं समर्प्य जनरल चौहानेन उक्तं यत् सैन्यत्रयस्य गार्ड ऑफ ऑनर इति सम्मानेन सह सेवानिवृत्तिः तस्मै अत्यन्तं सम्मानप्रदं वर्तते। जनरल अनिल चौहानः गतशताब्दस्य 81वें वर्षे भारतीय सेनायां सेवाम् अवाप्य 40 वर्षेषु देशसेवायां महत्वपूर्णपदेषु कार्यम् अकरोत्। लेफ्टिनेंट जनरल NS राजा सुब्रमण्यः जनरल अनिल चौहानस्य स्थानं स्वीकरिष्यति। अमेरिकायाः रक्षामन्त्री पीट हेग्सेथ इत्यसौ अवोचत् यत् यदि सन्धेः प्रयासाः विफलाः भविष्यन्ति चेत् अमेरिकायाः सेना ईरानं विरुध्य सैन्यकार्याचरणं विधातुं पूर्णरूपेण सन्नद्धा वर्तते। अल्पसंख्यक कार्यमंत्री किरेन रिजिजू अद्य सूचितवान् यत् प्रथमवारं भारतीय हज मिशन संस्थया हज समन्वयस्य संचारस्य च उत्कृष्टतायै सऊदी हज उमराह मन्त्रालययोः प्रतिष्ठितौ लाबाट्यूम पुरस्कारौ प्राप्तौ। सामाजिक संचार माध्यमेन श्री रिजिजू अकथयत् यत् 26,000 हज यात्रायाः मुख्य चरणस्य सफलता अल्पसंख्यक कार्य मंत्रालयस्य भारतीय हज समित्याः सऊदी अरब देशे भारतीय राजदूतस्य नेतृत्वे भारतीय हज मिशन इत्यस्य जेद्दाह नगरस्य महाव्यवस्थापकस्य च मध्ये अविच्छिन्न समन्वयं प्रतिबिम्बयति। बैडमिंटन क्रीडायां सिंगापुर ओपन टूर्नामेंट इति स्पर्धायां भारतस्य सात्विक साईराज रिंकी रेड्डी चिराग सेट्टी इत्यनयोः युगलं निर्णायक चक्रे प्रविष्टम्। उपांत्य चक्रे भारतीय दलेन दक्षिण कोरिया दलं पराजितम्। महिलानां अन्ताराष्ट्रिय क्रिकेट क्रीडायां अद्य भारत इंग्लैंड दलयोः द्वितीया 20-20 स्पर्धा भविष्यति। इयं स्पर्धा ब्रिस्टल नगरे भविष्यति। भारतीय समयानुसारेण सायं 7 वादने स्पर्धा आरप्स्यते। इति वार्ताः।